ओम श्री परमात्मने नमः।
ओम श्री परमात्मने नमः।
अथ दशमोऽध्यायः।
अथ दशमोऽध्यायः।
श्री भगवानुवाच।
श्री भगवानुवाच।
भूय एव महाबाहो।
भूय एव महाबाहो।
शृणु मे परमं वचः।
शृणु मे परमं वचः।
यत्तेहं प्रीयमाणाय।
यत्तेहं प्रीयमाणाय।
वक्ष्यामि हितकाम्यया।
वक्ष्यामि हितकाम्यया।
न मे विदुःसुरगणाः।
न मे विदुःसुरगणाः।
प्रभवं न महर्षयः।
प्रभवं न महर्षयः।
अहमादिर्हि देवानाम्।
अहमादिर्हि देवानाम्।
महर्षीणां च सर्वशः।
महर्षीणां च सर्वशः।
यो मामजमनादिं च।
यो मामजमनादिं च।
वेत्ति लोकमहेश्वरम्।
वेत्ति लोकमहेश्वरम्।
असम्मूढः समर्त्येषु।
असम्मूढः समर्त्येषु।
सर्वपापैः प्रमुच्यते।
सर्वपापैः प्रमुच्यते।
बुद्धिर्ज्ञानमसम्मोहः।
बुद्धिर्ज्ञानमसम्मोहः।
क्षमा सत्यं दमशमः।
क्षमा सत्यं दमशमः।
सुखं दुःखं भवो भावः।
सुखं दुःखं भवो भावः।
भयं च भयमेव च।
भयं च भयमेव च।
अहिंसा समता तुष्टिः।
अहिंसा समता तुष्टिः।
तपोदानं यशो यशः।
तपोदानं यशो यशः।
भवन्ति भावा भूतानां।
भवन्ति भावा भूतानां।
मत्त एव पृथग्विधाः।
मत्त एव पृथग्विधाः।
महर्षयः सप्त पूर्वे।
महर्षयः सप्त पूर्वे।
चत्वारो मनवस्तथा।
चत्वारो मनवस्तथा।
मद्भावा मानसा जाताः।
मद्भावा मानसा जाताः।
येषां लोक इमाः प्रजाः।
येषां लोक इमाः प्रजाः।
एतां विभूतिं योगं च।
एतां विभूतिं योगं च।
मम यो वेत्ति तत्त्वतः।
मम यो वेत्ति तत्त्वतः।
सो विकम्पेन योगेन।
सो विकम्पेन योगेन।
युज्यते नात्र संशयः।
युज्यते नात्र संशयः।
अहं सर्वस्य प्रभवः।
अहं सर्वस्य प्रभवः।
मत्तः सर्वं प्रवर्तते।
मत्तः सर्वं प्रवर्तते।
इति मत् मत्वा भजन्ते माम्
इति मत्वा भजन्ते माम्
बुधा भावसमन्विताः
बुधा भावसमन्विताः
मच्चित्ता मद्गतप्राणाः
मच्चित्ता मद्गतप्राणाः
बोधयन्तः परस्परम्
बोधयन्तः परस्परम्
कथयन्तश्च माम् नित्यम्
कथयन्तश्च माम् नित्यम्
तुष्यन्ति चरमन्ति च
तुष्यन्ति चरमन्ति च
तेषां सततयुक्तानां
तेषां सततयुक्तानां
भजतां प्रीतिपूर्वकम्
भजतां प्रीतिपूर्वकम्
ददामि बुद्धियोगं तं
ददामि बुद्धियोगं तं
येन मामुपयान्ति ते
येन मामुपयान्ति ते
तेषामेवानुकं पार्थम्
तेषामेवानुकं पार्थम्
अहमज्ञानजं तमः
अहमज्ञानजं तमः
नाशयाम्यात्मभावस्थः
नाशयाम्यात्मभावस्थः
ज्ञानदीपेन भास्वता
ज्ञानदीपेन भास्वता
अर्जुन उवाच
अर्जुन उवाच
परं ब्रह्म परं धाम
परं ब्रह्म परं धाम
पवित्रं परमं भवान्
पवित्रं परमं भवान्
पुरुषं शाश्वतं दिव्यं
पुरुषं शाश्वतं दिव्यम्
आदिदेवमजं विभुम्
आदिदेवमजं विभुम्
आहुस्त्वां ऋषयः सर्वे
आहुस्त्वां ऋषयः सर्वे
देवर्षिर्नारदस्तथा
देवर्षिर्नारदस्तथा
असितो देवलो व्यासः
असितो देवलो व्यासः
स्वयं चैव ब्रवीषि मे
स्वयं चैव ब्रवीषि मे
सर्वमेतदृतं मन्ये
सर्वमेतदृतं मन्ये
यन्मां वदसि केशव
यन्मां वदसि केशव
नहि ते भगवन् व्यक्तिं
नहि ते भगवन् व्यक्तिं
विदुर्देवा न दानवाः
विदुर्देवा न दानवाः
स्वयमेवात्मनात्मानम्
स्वयमेवात्मनात्मानम्
वेत्थत्वं पुरुषोत्तम
वेत्थत्वं पुरुषोत्तम
भूतभावनभूतेश
भूतभावनभूतेश
देवदेवजगत्पते
देवदेवजगत्पते
वक्तुमर्हस्य शेषेण
वक्तुमर्हस्य शेषेण
दिव्याह्यात्मविभूतयः
दिव्याह्यात्मविभूतयः
याभिर्विभूतिभिर्लोकान्
याभिर्विभूतिभिर्लोकान्
इमांस्त्वं व्याप्य तिष्ठसि
इमांस्त्वं व्याप्य तिष्ठसि
कथं विद्यामहं योगिन्
कथं विद्यामहं योगिन्
त्वां सदा परिचिन्तयन्
त्वां सदा परिचिन्तयन्
केषु च भावेषु
केषु च भावेषु
चिन्त्योऽसि भगवन् मया
चिन्त्योऽसि भगवन् मया
विस्तरेणात्मनो योगम्
विस्तरेणात्मनो योगम्
विभूतिं च जनार्दन
विभूतिं च जनार्दन
भूयः कथय तृप्तिर्हि
भूयः कथय तृप्तिर्हि
शृण्वतो नास्ति मे मृतम्
शृण्वतो नास्ति मे मृतम्
श्रीभगवानुवाच
श्रीभगवानुवाच
हन्तते कथयिष्यामि
हन्तते कथयिष्यामि
दिव्याह्यात्मविभूतयः
दिव्याह्यात्मविभूतयः
प्राधान्यतः कुरुश्रेष्ठ
प्राधान्यतः कुरुश्रेष्ठ
नास्त्यन्तो विस्तरस्य मे
नास्त्यन्तो विस्तरस्य मे
अहमात्मा गुडाकेश
अहमात्मा गुडाकेश
सर्वभूताशयस्थितः
सर्वभूताशयस्थितः
अहमादिश्च मध्यञ्च
अहमादिश्च मध्यञ्च
भूतानामन्त एव च
भूतानामन्त एव च
आदित्यानामहं विष्णुः
आदित्यानामहं विष्णुः
ज्योतिषां रविरंशुमान्
ज्योतिषां रविरंशुमान्
मरीचिर्मरुतामस्मि
मरीचिर्मरुतामस्मि
नक्षत्राणामहं शशि
नक्षत्राणामहं शशि
वेदानां सामवेदोऽस्मि
वेदानां सामवेदोऽस्मि
देवानामस्मि वासवः
देवानामस्मि वासवः
इन्द्रियाणां मनश्चास्मि
इन्द्रियाणां मनश्चास्मि
भूतानामस्मि चेतना
भूतानामस्मि चेतना
रुद्राणां शङ्करश्चास्मि
रुद्राणां शङ्करश्चास्मि
वित्तेषो यक्षरक्षसां
वित्तेषो यक्षरक्षसां
वसूनां पावकश्चास्मि
वसूनां पावकश्चास्मि
मेरुशिखरिणामहम्
मेरुशिखरिणामहम्
पुरोधसां च मुख्यं मां
पुरोधसां च मुख्यं मां
विद्धि पार्थ बृहस्पतिं
विद्धि पार्थ बृहस्पतिं
सेनानीनामहं स्कन्दः
सेनानी नामहं स्कन्दः
सरसामस्मि सागरः
सरसामस्मि सागरः
महर्षीणां भृगुरहम्
महर्षीणां भृगुरहम्
गिराम्यस्म्येकमक्षरम्
गिरामस्म्येकमक्षरम्
यज्ञानां जपयज्ञोऽस्मि
यज्ञानां जपयज्ञोऽस्मि
स्थावराणां हिमालयः
स्थावराणां हिमालयः
अश्वत्थ सर्ववृक्षाणां
अश्वत्थ सर्ववृक्षाणां
देवर्षीणां च नारदः
देवर्षीणां च नारदः
गन्धर्वाणां चित्ररथः
गन्धर्वाणां चित्ररथः
सिद्धानां कपिलो मुनिः
सिद्धानां कपिलो मुनिः
उच्चैश्रवसमश्वानां
उच्चैश्रवसमश्वानां
विद्धि मामृतोद्भवम्
विद्धि मामृतोद्भवम्
ऐरावतं गजेन्द्राणां
ऐरावतं गजेन्द्राणां
नराणां च नराधिपम्
नराणां च नराधिपम्
आयुधानामहं वज्रम्
आयुधानामहं वज्रम्
धेनूनामस्मि कामधुक्
धेनूनामस्मि कामधुक्
प्रजनश्चास्मि कन्दर्पः
प्रजनश्चास्मि कन्दर्पः
सर्पाणामस्मि वासुकिः
सर्पाणामस्मि वासुकिः
अनन्तश्चास्मि नागानाम्
अनन्तश्चास्मि नागानाम्
वरुणो यादसामहम्
वरुणो यादसामहम्
पितॄणामर्यमा चास्मि
पितॄणामर्यमा चास्मि
यमस्संयमतामहम्
यमस्संयमतामहम्
प्रह्लादश्चास्मि दैत्यानाम्
प्रह्लादश्चास्मि दैत्यानां
कालः कलयतामहम्
कालः कलयतामहम्
मृगाणां च मृगेन्द्रोऽहम्
मृगाणां च मृगेन्द्रोऽहम्
वैनतेयश्च पक्षिणां
वैनतेयश्च पक्षिणां
पवनः पवतामस्मि
पवनः पवतामस्मि
रामशस्त्रभृतामहम्
रामशस्त्रभृतामहम्
झषाणां मकरश्चास्मि
झषाणां मकरश्चास्मि
श्रोतसामस्मि जाह्नवी
श्रोतसामस्मि जाह्नवी
सर्गाणामादिरन्तश्च
सर्गाणामादिरन्तश्च
मध्यं चैवाहमर्जुन
मध्यं चैवाहमर्जुन
अध्यात्मविद्याविद्यानाम्
अध्यात्मविद्याविद्यानाम्
वादः प्रवदतामहम्
वादः प्रवदतामहम्।
अक्षराणामकारोऽस्मि
अक्षराणामकारोऽस्मि। द्वन्द्वस्सामासिकस्य च
अहमेवाक्षयः कालः। धाताहं विश्वतो मुखः।
मृत्युः सर्वहरश्चाहम्।
उद्भवश्च भविष्यताम्। कीर्तिश्रीर्वाक्चनारीणाम्।
स्मृतिर्मेधा धृतिः क्षमा।
बृहत्साम तथा साम्नाम्। गायत्री छन्दसामहम्। मासानां मार्गशीर्षोऽहम्।
ऋतूनां कुसुमाकरः।
द्यूतं छलयतामस्मि। तेजस्तेजस्विनामहम्। जयोऽस्मि व्यवसायोऽस्मि।
सत्त्वं सत्त्ववतामहम्।
वृष्णीनां वासुदेवोऽस्मि।
पाण्डवानां धनञ्जयः।
मुनीनामप्यहं व्यासः।
कवीनामुशना कविः।
दण्डोदमयतामस्मि। नीतिरस्मि जिगीषताम्।
मौनं चैवास्मि गुह्यानाम्।
ज्ञानं ज्ञानवतामहम्। यच्चापि सर्वभूतानां
बीजं तदहमर्जुन।
न तदस्ति विना यत्स्यात्।
मया भूतं चराचरम्।
नान्तोऽस्ति मम दिव्यानां।
विभूतीनां परन्तप।
एष तु देशतः प्रोक्तः
विभूतेर्विस्तरो मया
यद्यद्विभूतिमत्सत्वम्
श्रीमदूर्जितमेव वा
तत्तदेवावगच्छत्वम्
मम तेजोंश संभवम्
अथवा बहुनैतेन
किं ज्ञातेन तवार्जुन
विष्टभ्याहमिदं कृत्स्नम्
एकांशेन स्थितो जगत्
ओम तत्सत्
इति श्रीमद्भगवद्गीतासु
उपनिषत्सु
ब्रह्मविद्यायां
योगशास्त्रे
श्रीकृष्णार्जुनसंवादे
विभूतियोगो नाम
दशमोऽध्यायः।